ಅತ ತೈತ್ರಿಯಕಾಢ ತೃತೀಯ ಪ್ರಶ್ನ ಪ್ರಾರಂಭ.
ತುಭ್ಯಂತ ಅಂಗಿರಸ್ತಮಾಶ್ಯಾಮತಂಗಾಮಮಗ್ನೇ ಆಶಾನಾಂತ್ವಾ ವಿಶ್ವ ಆಶಾಃ ಅನುನೋದ್ಯಾನುಮತಿರನ್ವಿದನುಮತೆ ತ್ವಂ ಕಾಮೋ ಭೂತಸ್ಯ ಕಾಮಸ್ತದಗ್ರೇ ಬ್ರಹ್ಮಯಜ್ಞಾನಂ ಪಿತಾ ವಿರಾಜಾಂ ಯಜ್ಞೋ ರಾಯೋ ಯಜ್ಞಃ ಆಪೋ ಭದ್ರಾ ಆದಿತ್ಪಶ್ಯಾಮಿ ತುಭ್ಯಂ ಭರಂತಿ ಯೋ ದೇಹ್ಯಃ ಪೂರ್ವಂ ದೇವಾ ಅಪರೇಣ ಪ್ರಾಣಾಪಾನೌ ಅವ್ಯವಾಹಗಸ್ವಿಷ್ಟಂ ದೇವೇಭ್ಯೋ ವೈ ಸ್ವರ್ಗೋ ಲೋಕಸ್ಥಿರೋ ಭವತ್. ತೇ ಪ್ರಜಾಪತಿಮಬ್ರುವನ್ ಪ್ರಜಾಪತೇ ಸ್ವರ್ಗೋ ವೈ ನೋ ಲೋಕಸ್ಥಿರೋಭೂತ್. ತಮನ್ ಯಚ್ಛೇತಿ ತಂಯಜ್ಞಕ್ರತುಭಿರನ್ವೈಕ್ಷತ್ ತಂಯಜ್ಞಕ್ರತುಭಿರ್ನಾನ್ವವಿಂದತ್ ತಮಿಷ್ಟಿಭಿರನ್ವೈಕ್ಷತ್ ತಮಿಷ್ಟಿಭಿರನ್ವವಿಂದತ್ ತದಿಷ್ಟೀನಾಮಿಷ್ಟಿತ್ವಂ ಏಷ್ಟಯೋ ಹವೈನಾಮ ತಾಷ್ಟಯಿತ್ಯಾಚಕ್ಷತೆ ಪರೋಕ್ಷೇಣ ಪರೋಕ್ಷಪ್ರಿಯಾಹಿವೈದೇವಾಃ ತಮಾಶಾಬ್ರವೀತ್. ಪ್ರಜಾಪತ ಆಶಯಾ ವೈಶ್ರಾಮ್ಯಸಿ ಅಹಮವಾ ಆಶಾಸ್ಮಿ ಮಾನ್ಯಜಸ್ವ ಅಥ ತೇ ಸತ್ಯಾಶಾ ಭವಿಷ್ಯತಿ ಅನುಸ್ವರ್ಗಂ ಲೋಕಂ ವೇತ್ಸ್ಯಸೀತಿ. ಸ ಏತಮಗ್ನಯೇ ಕಾಮಾಯ ಪುರೋಡಾಶಮಷ್ಟಾಕಪಾಲಂ ನಿರಪಪತ್. ಆಶಾಯೈ ಚರಂ ಅನುಮತ್ಯೈ ಚರಂ ತಥೋ ವೇತಸ್ಯ ಸತ್ಯಾಶಾಭವತ್. ಅನುಸ್ವರ್ಗಂ ಲೋಕಮವಿಂದತ್ ಸತ್ಯಾಹವಾ ಅಸ್ಯಾಶಾಭವತಿ. ಅನುಸ್ವರ್ಗಂ ಲೋಕಂ ವಿಂದತಿ ಯ ಏತೇನ ಹವಿಷಾ ಯಜತೆ ಯೌಚೈನ ದೇವಂ ವೇದ ಸೋತ್ರ ಜುಹೋತಿ. ಅಗ್ನಯೇ ಕಾಮಾಯ ಸ್ವಾಹಾ ಶಾಯೈ ಸ್ವಾಹಾ ಅನುಮತ್ಯೈ ಸ್ವಾಹಾ ಪ್ರಜಾಪತಯೇ ಸ್ವಾಹಾ ಸ್ವರ್ಗಾಯ ಲೋಕಾಯ ಸ್ವಾಹಾಗ್ನಯೇ ಸ್ವಿಷ್ಟಕೃತೇ ಸ್ವಾಹೇತಿ ತಂ ಕಾಮೋಬ್ರವೀತ್. ಪ್ರಜಾಪತೇ ಕಾಮೇನ ವೈಶ್ರಾಮ್ಯಸಿ ಅಹಮವೈ ಕಾಮೋಸ್ಮಿ ಮಾನ್ಯಜಸ್ವ ಅಥ ತೇ ಸತ್ಯಃ ಕಾಮೋ ಭವಿಷ್ಯತಿ ಅನುಸ್ವರ್ಗಂ ಲೋಕಂ ವೇತ್ಸ್ಯಸೀತಿ. ಸ ಏತಮಗ್ನಯೇ ಕಾಮಾಯ ಪುರೋಡಾಶಮಷ್ಟಾಕಪಾಲಂ ನಿರಪಪದೆ. ಕಾಮಾಯ ಚರುಂ ಅನುಮತ್ಯೈ ಚರುಂ ತಥೋ ವೇತಸ್ಯ ಸತ್ಯಃ ಕಾಮೋಭವತ್. ಅನುಸ್ವರ್ಗಂ ಲೋಕಮವಿಂದತ್ ಸತ್ಯಾಹವಾ ಅಸ್ಯ ಕಾಮೋಭವತಿ. ಅನುಸ್ವರ್ಗಂ ಲೋಕಂ ವಿಂದತಿ ಯ ಏತೇನ ಹವಿಷಾ ಯಜತೆ ಯೌಚೈನ ದೇವಂ ವೇದ ಸೋತ್ರ ಜುಹೋತಿ. ಅಗ್ನಯೇ ಕಾಮಾಯ ಸ್ವಾಹಾ ಕಾಮಾಯ ಸ್ವಾಹಾ ಅನುಮತ್ಯೈ ಸ್ವಾಹಾ ಪ್ರಜಾಪತಯೇ ಸ್ವಾಹಾ ಸ್ವರ್ಗಾಯ ಲೋಕಾಯ ಸ್ವಾಹಾ ಅಗ್ನಯೇ ಸ್ಪಿಷ್ಟಕೃತೇ ಸ್ವಾಹೇತಿ ತಂ ಬ್ರಹ್ಮಾಬ್ರವೀತ್. ಪ್ರಜಾಪತೇ ಬ್ರಹ್ಮಣ ವೈಶ್ರಾಮ್ಯಸಿ ಅಹಮವೈ ಬ್ರಹ್ಮಾಸ್ಮಿ ಮಾನ್ಯಜಸ್ವ ಅಥ ತೇ ಬ್ರಹ್ಮಣ್ವಾನ್ ಯಜ್ಞೋ ಭವಿಷ್ಯತಿ ಅನುಸ್ವರ್ಗಂ ಲೋಕಂ ವೇತ್ಸ್ಯಸೀತಿ. ಸ ಏತಮಗ್ನಯೇ ಕಾಮಾಯ ಪುರೋಡಾಶಮಷ್ಟಾಕಪಾಲಂ ನಿರಪಪತೆ. ಬ್ರಹ್ಮಣೇ ಚರಂ ಅನುಮತ್ಯೇ ಚರಂ ತಥೋ ವೇತಸ್ಯ ಬ್ರಹ್ಮಣ್ವಾನ್ ಯಜ್ಞೋಭವತ್. ಅನುಸ್ವರ್ಗಂ ಲೋಕಮವಿಂದತ್ ಬ್ರಹ್ಮಣ್ವಾನ್ ಹವಾ ಅಸ್ಯ ಯಜ್ಞೋಭವತಿ. ಅನುಸ್ವರ್ಗಂ ಲೋಕಂ ವಿಂದತಿ ಯ ಏತೇನ ಹವಿಷಾ ಯಜತೆ ಯೌಚೈನ ದೇವಂ ವೇದ ಸೋತ್ರ ಜುಹೋತಿ. ಅಗ್ನಯೇ ಕಾಮಾಯ ಸ್ವಾಹಾ ಬ್ರಹ್ಮಣೇ ಸ್ವಾಹಾ ಅನುಮತ್ಯೈ ಸ್ವಾಹಾ ಪ್ರಜಾಪತಯೇ ಸ್ವಾಹಾ ಸ್ವರ್ಗಾಯ ಲೋಕಾಯ ಸ್ವಾಹಾ ಅಗ್ನಯೇ ಸ್ಪಿಷ್ಟಕೃತೇ ಸ್ವಾಹೇತಿ ತಂಯಜ್ಞಾಬ್ರವೀತ್. ಪ್ರಜಾಪತೇ ಯಜ್ಞೇನ ವೈಶ್ರಾಮ್ಯಸಿ ಅಹಮವೈ ಯಜ್ಞೋಸ್ಮಿ ಮಾನ್ವಿಜಸ್ವ ಅಥ ತೇ ಸತ್ಯೋ ಯಜ್ಞೋ ಭವಿಷ್ಯತಿ ಅನುಸ್ವರ್ಗಂ ಲೋಕಂ ವೇತ್ಸ್ಯಸೀತಿ. ಸ ಏತಮಗ್ನಯೇ ಕಾಮಾಯ ಪುರೋಡಾಶಮಷ್ಟಾಕಪಾಲಂ ನಿರವಪತ್. ಯಜ್ಞಾಯ ಚರಂ ಅನುಮತ್ಯೈ ಚರಂ ತಥೋ ವೇತಸ್ಯ ಸತ್ಯೋ ಯಜ್ಞೋಭವತ್. ಅನುಸ್ವರ್ಗಂ ಲೋಕಮವಿಂದತ್ ಸತ್ಯೋ ಹವಾ ಅಸ್ಯ ಯಜ್ಞೋಭವತಿ. ಅನುಸ್ವರ್ಗಂ ಲೋಕಂ ವಿಂದತಿ ಯ ಏತೇನ ಹವಿಷಾ ಯಜತೆ ಯೌಚೈನ ದೇವಂ ವೇದ ಸೋತ್ರ ಜುಹೋತಿ. ಅಗ್ನಯೇ ಕಾಮಾಯ ಸ್ವಾಹಾ ಯಜ್ಞಾಯ ಸ್ವಾಹಾ ಅನುಮತ್ಯೈ ಸ್ವಾಹಾ ಪ್ರಜಾಪತಯೇ ಸ್ವಾಹಾ ಸ್ವರ್ಗಾಯ ಲೋಕಾಯ ಸ್ವಾಹಾ ಅಗ್ನಯೇ ಸ್ಪಷ್ಟಕೃತೇ ಸ್ವಾಹೇತಿ तमाहो ब्रुवन् प्रजापतेप्स्वै सर्वे कामाश्रिताः वयमुवा आपस्मः अस्मान्नुगजस्व अथ त्वयि सर्वे कामाश्रयिष्यन्ते अनस्वर्गम् लोकम् वेत्स्यसीति सगेतमग्नये कामाय पुरोडाशमष्टाकपालम् निरवपत् अभ्याश्चरम् अनुमत्ये चरम् ततो वेदस्मेन् सर्वे कामा अश्रयन्त अनुस्वर्गम् लोकमविन्दत् सर्वे हवा अस्मिन् कामाश्रयन्ते अनुस्वर्गम् लोकम् विन्दति य एतेन हविषा यजते यौचैन देवम् वेद सोऽत्र जुहोति अग्नये कामाय स्वाहाध्यस्वाहा अनुमत्यै स्वाहा प्रजापतये स्वाहा स्वर्गाय लोकाय स्वाहाग्नये सृष्टकृते स्वाहेति तमग्निर्बलिमानब्रवीत् प्रजापतेऽग्नये वै बलिमते सर्वाणि भूतानि बलिगुंहरन्ति अहमुवा अग्निर्बलिमानस्मि मान्यजस्व अथ ते सर्वाणि भूतानि बलिगुंहरिष्यन्ति अनुस्वर्गम् लोकम् वेत्स्यसीति स एतमग्नये कामाय पुरोडाशमष्टाकपालम् निरवपते अग्नये बलिमते चरम् अनुमत्ये चरम् ततो वै तस्मै सर्वाणि भूतानि बलिमहरन् अनुस्वर्गम् लोकमविन्दत् सर्वाणि हवा अस्मै भूतानि बलिगुंहरन्ति अनुस्वर्गम् लोकम् विन्दति य एतेन हविषा यजते यौचैन देवम् वेद स्तोत्र जुहोति अग्नये कामाय स्वाहाग्नये बलिमते स्वाहा अनुमत्यै स्वाहा प्रजापतये स्वाहा स्वर्गाय लोकाय स्वाहाग्नये सृष्टकृते स्वाहेति तमनुवित्तिरब्रवीत् प्रजापते स्वर्गम् वै लोकमनुविवित्ससि अहमुवानुवित्तिरस्मि मान्गजस्व अथ ते सत्यानुवित्तिर्भविष्यति अनुस्वर्गम् लोकम् वेत्स्यसीति स एतमग्नये कामाय पुरोडाशमष्टाकपालम् निरवपत् अनुवित्त्यै चरम् अनुमत्यै चरम् ततो वै तस्य सत्यानुवित्तिरभवत् अनुस्वर्गम् लोकमविन्दत् सत्याह वा अस्यानुवित्तिर्भवति अनुस्वर्गम् लोकम् विन्दति य एतेन हविषा यजते यौचेन देवम् वेद स्तोत्र जुहोति अग्नये कामाय स्वाहानुवित्त्यै स्वाहा अनुमत्यै स्वाहा प्रजापतये स्वाहा स्वर्गाय लोकाय स्वाहाग्नये सृष्टकृते स्वाहेति तावा एताः सप्त स्वर्गस्य लोकस्य द्वारः दिवस्येन योनुवित्तयो नाम आशा प्रथमागुम् रक्षति कामो द्वितीयाम् ब्रह्म द्वितीयाम् यज्ञश्चतुर्थीम् आपः पञ्चमीम् अग्निर्बलिमान् षष्ठीम् अनुवित्तिः सप्तमीम् अनुहवै स्वर्गम् लोकम् विन्दति कामचारोऽस्य स्वर्गे लोके भवति य एताभिरिष्टिभिर्यजते यौचैना एवम् वेद तास्मन्वृष्टि पृष्ठो हि वरान् दद्यात् कृगुंसम् च स्त्रियै च भारगुम् समृद्ध्यै तपसा देवा देवतामग्रायन् तपसर्षयस्वरन्वविन्दन् तपसा सपत्नान् प्रणुजामारातेः येनेदम् विश्वम् परिभूतम् यदस्ति प्रथमजम् देवगुम् हविषा विधेम स्वयम्भो ब्रह्म परमन्तपो यत् स एव पुत्रस्य पिता स माता तपोह यक्षम् प्रथमगुम् सम्बभूव श्रद्धया देवो देवत्वमश्नुते श्रद्धा प्रतिष्ठा लोकस्य देवी सा नो जुषाणोपयज्ञमागात् कामवत्सामृतम् गृहाणा श्रद्धा देवी प्रथमजारथस्य विश्वस्य भर्त्री जगतः प्रतिष्ठा तागश्रद्धागम् हविषा यजामहे सा नो लोकममृतम् दधातु ईशाना देवी भुवनस्याधिपत्नी आगात् सत्यगम् हवेदञ्जुषाणम् यस्माद्देवाजज्ञिरे भुवनम् च विश्वे तस्मै विधेम हविषा घृतेन यथा देवैः सधमादम् वदेम यस्य प्रतिष्ठोर्वन्तरिक्षम् यस्माद्देवाजज्ञिरे भुवनम् च सर्वे तत्सत्यमर्चदुपयज्ञम् आगात् ब्रह्माहुतिरुपमोदमानम् मनसो वशे सर्वमिदम् बभूव नान्यस्य मनोवशमन्विजाय भीष्मो हि देवः सहसस्सहीयान् स नो जुषा न उपयज्ञमागात् आतूतीनामधिपतिम् चेतसाम् च सङ्कल्पज्योतिम् देवम् विपश्यम् मनोराजानमिह वर्धयन्तः उपहवेस्य सुमतोऽस्याम चरणम् पवित्रम् विततम् पुराणम् येन पूतस्तरति दुष्कृतानि तेन पवित्रेण शुद्धेन पूताः अतिपाप्मानमरातिन्तरेम लोकस्य द्वारमर्चिमत्पवित्रम् ज्योतिष्मद्भ्राजमानम् महस्वत् अमृतस्य धारा बहुधा दोहमानम् चरणम् नो लोके सुधिताम् दधातु अग्निर्मूर्धा भुवः अनुनोद्यानुमतिरन्विदनुमते त्वम् अव्यवाहग्रस्तिष्टम् देवेभ्यो वै स्वर्गो लोकस्थिरोऽभवत् ते प्रजापतिमब्रुवन् प्रजापते स्वर्गो वै नो लोकस्थिरोऽभूत् तमन्विच्छेति तञ्यज्ञक्रतुभिरन्वयेच्छत् तञ्यज्ञक्रतुभिर्मान्वविन्दत् तमिष्टिभिरन्वयेच्छत् तमिष्टिभिरन्वविन्दत् तदिष्टीनामिष्टित्वाम् एष्टयो हवी नाम ता इष्टय इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः तन्तपोऽब्रवीत् प्रजापते तपसा वैश्राम्यसि अहमवै तपोऽस्मि मान्गजस्व अथ ते सत्यम् तपो भविष्यति अनुस्वर्गम् लोकम् वेक्ष्यसीति स एतमाग्नेयमष्टाकपालम् निरवपत् तपसे चरम् अनुमत्ये चरम् ततो वेतस्य सत्यम् तपोऽभवत् अनुस्वर्गम् लोकमविन्दत् सत्यगम् भवा अस्य तपो भवति अनुस्वर्गम् लोकम् विन्दति य एतेन हविषा यजते यौचेन देवम् वेद स्तोत्र जुहोति अग्नये स्वाहा तपसे स्वाहा अनुमत्ये स्वाहा प्रजापतये स्वाहा स्वर्गाय लोकाय स्वाहाग्नये सृष्टकृते स्वाहेति तद्य श्रद्धाब्रवीत् प्रजापते श्रद्धया वैश्राम्यसि अहमवै श्रद्धास्मि मान्मृगजस्व अथ ते सत्या श्रद्धा भविष्यति अनुस्वर्गम् लोकम् वेत्स्यसीति स एतमाग्नेयमष्टाकपालम् निरपपत् श्रद्धायै चरम् अनुमत्यै चरम् ततो वेतस्य सत्या श्रद्धा भवत् अनुस्वर्गम् लोकमविन्दत् सत्या हवा अस्य श्रद्धा भवति अनुस्वर्गम् लोकम् विन्दति य एतेन हविषा यजते यौचेन देवम् वेद श्रोत्र जुहोति अग्नये स्वाहा श्रद्धायै स्वाहा अनुमत्यै स्वाहा प्रजापतये स्वाहा स्वर्गाय लोकाय स्वाहाग्नये स्विष्टकृते स्वाहेति तगुम् सत्यमब्रवीत् प्रजापते सत्येन वैश्राम्यसि अहमवै सत्यमस्मि मान्गजस्व अथ ते सत्यगम् सत्यम् भविष्यति अनुस्वर्गम् लोकम् वेत्स्यसीति स एतमाग्नेयमष्टाकपालम् निरवपत् सत्याय चरम् अनुमत्यै चरम् ततो वेदस्य सत्यगम् सत्यमभवत् अनुस्वर्गम् लोकमविन्दत् सत्यगम् हवा अस्य सत्यम् भवति अनुस्वर्गम् लोकम् विन्दति य एतेन हविषा यजते यौचैन देवम् वेद स्तोत्र जुहोति अग्नये स्वाहा सत्याय स्वाहा अनुमत्यै स्वाहा प्रजापतये स्वाहा स्वर्गाय लोकाय स्वाहाग्नये स्विष्टकृते स्वाहेति तम् मनोऽब्रवीत् प्रजापते मनसा वैश्राम्यसि अहमवै मनोऽस्मि मान्गजस्व अथ ते सत्यम् मनो भविष्यति अनुस्वर्गम् लोकम् वेत्स्यसीति स एतमाग्नेयमष्टाकपालम् निरवपत् मनसे चरम् अनुमत्यै चरम् ततो वेदस्य सत्यम् मनो भवत् अनुस्वर्गम् लोकमविन्दत् सत्यगम् हवा अस्य मनो भवति अनुस्वर्गम् लोकम् विन्दति य एतेन हविषा यजते यौचैन देवम् वेद स्वोत्र जुहोति अग्नये स्वाहा मनसे स्वाहा अनुमत्यै स्वाहा प्रजापतये स्वाहा स्वर्गाय लोकाय स्वाहाग्नये स्पृष्टकृते स्वाहेति तञ्चरणमब्रवीत् प्रजापते चरणेन वैश्राम्यसि अहमवै चरणमस्मि मां नृगजस्व अथ ते सत्यम् चरणम् भविष्यति अनुस्वर्गम् लोकम् वेत्स्यसीति स एतमाग्नेयमष्टाकपालम् निरवपद चरणाय चरम् अनुमत्यै चरम् ततो वेदस्य सत्यम् चरणमभवत् अनुस्वर्गम् लोकमविन्दत् सत्यगम् हवा अस्य चरणम् भवति अनुस्वर्गम् लोकम् विन्दति य एतेन हविषा यजते यौचैन देवम् वेद स्वोत्र जुहोति अग्नये स्वाहा चरणाय स्वाहा अनुमत्यै स्वाहा प्रजापतये स्वाहा स्वर्गाय लोकाय स्वाहाग्नये स्पृष्टकृते स्वाहेति तावा एताः पञ्च स्वर्गस्य लोकस्य द्वारः अपाधा अनुवित्तयो नाम तपः प्रथमागम् रक्षति श्रद्धा द्वितीयाम् सत्यम् तृतीयाम् मनश्चतुर्थीम् चरणम् पञ्चमीम् अनुहवे स्वर्गम् लोकम् विन्दते कामचारोऽस्य स्वर्गे लोके भवति य एताभिरिष्टभिर्यजते यौचैना एवम् वेद तास्वन्विष्टि पष्ठौ हि वरान् दद्यात् खगुंसम् च स्त्रियै चाभारगुम् समृद्ध्यै ब्रह्म वै चतुर्होतारः चतुर्होतृभ्योऽधिलग्नो निर्मितः नैनगुम् सप्तम् नाभिचरितमागच्छति य एवम् वेद यो हवै चतुर्होतृणाम् चतुर्होतृत्वम् वेद अथो पञ्चहोतृत्वम् सर्वाःस्मै दिशः कल्पन्ते वाचस्पतिर्होता दशहोतॄणाम् पृथिवी होता चतुर्होतॄणाम् अग्निर्होता पञ्चहोतॄणाम् वाग्होता षड्होतॄणाम् महाहविर्होता सप्तहोतॄणाम् एतद्वै चतुर्होतॄणाम् चतुर्होतृत्वम् अथो पञ्चहोतृत्वम् सर्वाः अस्मै दिशः कल्पन्ते य एवम् वेद एषा वै सर्वविद्या एतद्भेषजम् एषा पङ्क्तिस्वर्गस्य लोकस्याञ्जसाय निःसृतिः एतानिर्योऽध्यैर्यच्छतिर्दर्शे यावत्तरसम् स्वरेति अनपब्रवः सर्वमाजुरेति विन्दते प्रजाम् राजस्पोषङ्गौपत्याम् ब्रह्मवर्चसी भवति एतानिर्योऽध्यैति स्पृणात्यात्मानम् प्रजाम् पितॄन् एतान् वा अरुण औपवेशर्विदाञ्चकार एतैरधिवादमपाजयत् अथो विश्वम् पाप्मानम् स्वर्ययौ एतान् योध्यैति अधिवादम् जयति अथो विश्वम् पाप्मानम् स्वरेति एतैरग्निम् चिन्वेतः स्वर्गकामः एतैरायुष्कामः प्रजापशुकामो वा पुरस्ताद्दशहोतारमुदम् चमुपदधाति यावत्पदम् हृदयम् यजुषी पत्न्यौ च दक्षिणतः प्राञ्चम् चतुर्होतारम् पश्चादुदम् च पञ्चहोतारम् उत्तरतः प्राञ्चकम् षड्होतारम् उपरिष्टात् प्राञ्चकम् सप्तहोतारम् हृदयम् यजोगुंषि पत्न्यश्च यथावकाशम् ग्रहान् यथावकाशम् प्रतिग्रहान् लोकम् प्रणाश्च सर्वाः स्यैता देवताः प्रीता अभीष्टा भवन्ति सदेवमग्निम् चिनुते रथसंमितश्चेतव्यः वज्रो वै रथः वज्रेणैव पाप्मानम् भ्रातृयज्ञस्तृणुते पक्षः संमितश्चेतव्यः एतावान् वै रथः यावत्पक्षः रथसंमितमेव चिनुते इममेव लोकम् पशुबन्धेनाभिजयति अथो अग्निष्टोमेन अन्तरिक्षमुख्येन स्वरतिरात्रेण सर्वान् लोकानहीनेन अथो सत्रेण परो दक्षिणा परेणैव वरग्गस्पृणोति आत्मा हि वरः एकविपुंशतिर्दक्षिणा ददाति एकविपुंशो वा इतः स्वर्गो लोकः प्रस्वर्गम् लोकमाप्नोति असावादित्य एकविपुंशः अमुमेवादित्यमा आप्नोति शतम् ददाति शतायुः पुरुषः शतेन्द्रियः आयुष्येवेन्द्रिये प्रतिष्ठति सहस्रम् ददाति सहस्रसंवितः स्वर्गो लोकः स्वर्गस्य लोकस्याभिजित्यै अन्विष्टकम् दक्षिणा ददाति सर्वाणि वयागुंसि सर्वस्याप्त्यै सर्वस्यावरुध्यै यदि न विन्देत मन्थाने तावतो दद्यादो धनान् वा अश्नुतेतम् कामम् यस्मै कामायाग्निश्चीयते पष्ठो हीम् त्वन्तर्वतीम् दद्यात् सा हि सर्वाणि वजागुंसि सर्वस्याप्त्यै सर्वस्यावरुध्यै हिरण्यम् ददाति हिरण्यज्योतिरेव स्वर्गम् लोकमेति वासो ददाति तेनायः प्रतिरते वेदि तृतीये गजेत त्रिशत्याहि देवाः ससत्यमग्निम् चिनुते तदेतत्पशुबन्धे ब्राह्मणम् ब्रूयात् नेतरेषु यज्ञेषु यो हवे चतुर्होत्रेण सवनम् तर्पयितव्याने वेद तृप्यति प्रजया पशुभिः उपैनगुम् सोमपीठो नमति ये ते वै चतुर्होतारोऽनुसवनम् तर्पयितव्याः ये ब्राह्मणा बहुविदः तेभ्यो यद्दक्षिणामनयेत् दुरिष्टग् स्यात् अग्निमस्य वृञ्जीरन् तेभ्यो यथा श्रद्धम् दद्यात् स्विष्टमेवैतत्क्रियते नास्याग्निम् वृञ्जते हिरण्येष्टको भवति यावदुत्तममङ्गुलिकाण्डम् यज्ञपरुषा संहितम् तेजो हिरण्यम् यदि हिरण्यम् न विन्देत् शर्करा अक्ता उपदध्यात् तेजो घृतम् स तेजसमेवाग्निम् चिनुते अग्निम् चित्वासोत्रावण्यायजेतमैत्रावरुण्या वा दीर्घेण वा एष व्युध्यते योऽग्निम् चिनुते यावदेव वीर्यम् तदस्मिन् दधाति ब्रह्मणः सायुज्यगम् स लोकतामाप्नोति एतासामेव देवता नागुंसायुज्यम् साष्टितागुम् समानलोकतामाप्नोति य एतमग्निम् चिनुते य उचैनमेवम् वेद एतदेव सावित्रे ब्राह्मणम् अथो नाचिकेते यच्चामृतम् यच्च मर्त्यम् यच्च प्राणिति गच्छ न सर्वास्ताष्टकाः कृत्वा उपकामदुघादधे तेन ऋषिणा तेन ब्रह्मणा तजा देवतजाङ्गिरस्वध्रुवासीद सर्वास्त्रियः सर्वान् पुंसः सर्वन्न स्त्री पुमञ्चयत् सर्वास्ताः यावन्तः पागुंसवो भूमेः सङ्ख्याता देव माजया सर्वास्ताः यावन्त ऊषाः पशूनाम् पृथिव्याम् पुष्ट्यर्हिताः सर्वास्ताः यावती सिगताः सर्वाः अप्सन्दश्चयाश्रिताः सर्वास्ताः यावती शर्कराधृत्यै अस्याम् पृथिव्यामधि सर्वास्ताः यावन्तोऽश्मानोऽस्याम् पृथिव्याम् प्रतिष्ठासु प्रतिष्ठिताः सर्वास्ताः यावतीर्वेरुधः सर्वाः पृष्ठिताः पृथिवीमन सर्वास्ताः यावतीरोषधीः सर्वाः पृष्ठिताः पृथिवीमन सर्वास्ताः यावन्तो वनस्पतयः अस्याम् पृथिव्यामधि सर्वास्ताः यावन्तो ग्राम्याः पशवः सर्वे आरण्याश्च ये सर्वास्ताः ये द्विपादश्चतुष्पादः अपाद उदरसर्पिणः सर्वास्ताः यावदाञ्जनमुच्यते देवत्रायच्च मानुषम् सर्वास्ताः यावत्कृष्णाय सकृतम् सर्वम् देवत्रायच्च मानुषम् सर्वास्ताः यावल्लोहाय सगुम् सर्वम् देवत्राय च मानुषम् सर्वास्ताः सर्वगुंसि सदुम् सर्वम् त्रप देवत्राय च मानुषम् सर्वास्ताः सर्वगुम् हिरण्यगुम् रजतम् देवत्राय च मानुषम् सर्वास्ताः सर्वगुम् सुवर्णगुम् हरितम् देवत्राय च मानुषम् सर्वास्ताष्टगाः कृत्वा उपकामदुघादधे तेन ऋषिणा तेन ब्रह्मणा तया देवतयाङ्गिरस्वध्रुवासीद सर्वादिशो दिक्षो यच्चान्तर्भूतम् प्रतिष्ठितम् सर्वास्ताष्टगाः कृत्वा उपकामदुघादधे तेन ऋषिणा तेन ब्रह्मणा तया देवतयाङ्गिरस्वध्रुवासीद अन्तरिक्षम् च केवलम् यच्चास्मिन्नन्तराहितम् सर्वास्ताः आन्तरिक्ष्यश्च याः प्रजाः गन्धर्वाप्सरसश्च ये सर्वास्ताः सर्वानुदारान् सलिलान् अन्तरिक्षे प्रतिष्ठितान् सर्वास्ताः सर्वानुदारान् सलिलान् स्थावराः प्रोष्याश्च ये सर्वास्ताः सर्वान्धुनिकम् सर्वान्ध्वकंसान् हिमायच्च शीयते सर्वास्ताः सर्वान्मरीचीन् विदधान् निहारो यच्च शीयते सर्वास्ताः सर्वा विद्युतः सर्वान्स्तनयित्रोन् ह्रादुनेर्यच्च शीयते सर्वास्ताः सर्वाश्रवन्दे सरितः सर्वमप्सु चरञ्च यत् सर्वास्ताः याश्च कोऽप्यायाश्च नाद्याः समुद्र्याः
याश्च वेशन्ते ऋतप्रासचेर्याः सर्वास्ताः ये चोत्तिष्ठन्ति जेमूताः याश्च वर्षन्ति वृष्टयः सर्वास्ताः तपस्तेज आकाशम्
यच्चाकाशे प्रतिष्ठितम् सर्वास्ताः वायुम् वयागुंसि सर्वाणि अन्तरिक्षचरम् च यत् सर्वास्ताः अग्निगुम् सौर्यम् चन्द्रम् मित्रम् वरुणम् भगम् सर्वास्ताः सत्यज्ञश्रद्धान्तपोदमम् नामरूपम् च भूतानाम् सर्वास्ता इष्टगाः कृत्वा उपकामदुघादधे तेन ऋषिणा तेन ब्रह्मणा तया देवतयाङ्गिरस्वध्रुवासीद सर्वान् विभगुम् सर्वान् देवान् दिवि यच्चान्तर्भूतम् प्रतिष्ठितम् सर्वास्ता इष्टगाः कृत्वा उपकामदुघादधे तेन ऋषिणा तेन ब्रह्मणा तया देवतयाङ्गिरस्वध्रुवासीद यावतीस्तारकाः सर्वाः विततारोचने दिवि सर्वास्ताः ऋचो यजोगुंशिसामानि अथर्वाङ्गिरसश्च ये सर्वास्ताः इतिहासपुराणम् च सर्पदेवजनाश्च ये सर्वास्ताः ये च लोका ये च लोकाः अन्तर्भूतम् प्रतिष्ठितम् सर्वास्ताः यच्च ब्रह्म यच्चाब्रह्म अन्तर्ब्रह्मन् प्रतिष्ठितम् सर्वास्ताः अहोरात्राणि सर्वाणि अर्धमासाकश्च केवलान् सर्वास्ताः सर्वानृतोन् सर्वान् मासान् संवत्सरम् च केवलम् सर्वास्ताः सर्वम् भूतकम् सर्वम् भव्यम् यच्चातोऽधिभविष्यति सर्वास्ताशिष्टकाः कृत्वा उपकामदुघादधे तेन ऋषिणा तेन ब्रह्मणा तया देवतयाङ्गिरस्वध्रुवासीद ऋचाम् प्राचीमहतीति गुच्यते यक्षिणामाहुर्यजुषामपाराम् अथर्वणामङ्गिरसाम् प्रतीचे साम् नामदीचे महतीति गुच्यते यद्भ्यः पर्वाह्ने दिवि देव ईजते यजुर्वेदे तिष्ठति मध्ये अह्नः सामवेदेनास्तमजे महीजते वेदैरसोऽन्यस्त्रिभिरेति सूर्यः
ऋग्भ्यो जातागुम् सर्वशो मूर्तिमाहुः सर्वागतिर्याजुषेहैव शश्वत् सर्वम् तेजःसामरूप्यगुम्हशश्वत् सर्वगुम्हेदम् ब्रह्मणाहैव सृष्टम् ऋग्भ्यो जातम् वैश्यम् वर्णमाहुः यजुर्वेदम् क्षत्रियस्याहुर्योनिम् सामवेदो ब्राह्मणानाम् प्रसूतिः पूर्वे पूर्वेभ्यो वच एतदोचुः आदर्शमग्निञ्चिन्वादाः पूर्वे विश्वसृजोमृताः शतम् वर्षसहस्राणि दीक्षिताः सत्रमासत तप आसीत् गृहपतिः यद्विश्वसृज आसत अमृतमेभ्य उदगायत् सहस्रम् परिवत्सरान् भूतगम्ह प्रस्तोतेषामासीत् भविष्यत्प्रतिचाहरत् प्राणो अध्वर्युरभवत् इदगुम् सर्वगुंसिषासताम् अपानो विद्वानामृतः प्रतिप्रातिष्ठदध्वरे आर्तवा उपगातारः सदस्या ऋतवोऽभवन् अर्धमासाश्चमासाश्च चमसाध्वर्यवोऽभवन् अशकुम् सद्ब्रह्मणस्तेजः अच्छावाकोऽभवद्विषः ऋतमेषाम् प्रशास्तासीत् यद्विश्वसृज आसत ऊर्ग्राजानमुदवहत् ध्रुवगोपः सहोऽभवत् ओजोऽभ्यष्टोग्राविण्णः यद्विश्वसृज आसत अपचितिः पोत्रीजामगजत् मेष्ट्रीजामगजत्षिः वाग्मीघ्राद्विदुषी सत्याम् श्रद्धाहैवायजत्स्वयम् इरापत्नी विश्वसृजाम् आगोतिरपि नड्ढभिः युध्मगुम् हक्षुच्चैभ्य उग्रे कृष्णा चावहतामुभे वागेशागुम् सुब्रह्मण्यासीत् छन्दो योगान् विजानति कल्पतन्त्राणि तन्वानाः सर्गस्थाश्च सर्वशः अहोरात्रे पशुपाल्यौ मुहूर्ताः प्रेष्या अभवन् मृत्युस्तदभवद्धाता समितोऽग्रो विशाम्बतिः विश्वसृजः प्रथमाः सत्रमासत सहस्रसमम् प्रसुते नयन्तः ततोहयज्ञे भुवनस्य गोपाः हिरण्मयः शकुनिर्ब्रह्मनाम येन सौर्यस्तपति तेजसेद्धः पिता पुत्रेण पितृमान् योनियोनौ नावेदविन्मनुते तम् बृहन्तम् सर्वानुभवमात्मानगम् सम्पराये एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नोकनीयान् तस्यैवात्मा पदवित्तम् विदित्वा न कर्मणा लिप्यते पापकेन पञ्चपञ्चाशतस्त्रिवृतः संवत्सराः पञ्चपञ्चाशतः पञ्चदशाः पञ्चपञ्चाशतः सप्तदशाः पञ्चपञ्चाशत एकविपुंसाः विश्वसृजागुम् सहस्रसंवत्सरम् एतेन वै विश्वसृज इदम् विश्वमसृजन्त यद्विश्वमसृजन्त तस्माद्विश्वसृजः विश्वमेनाननुप्रजायते ब्रह्मणः सायुज्यगुम् सलोकतायन्ति एतासामेव देवता नागुम् सायुज्याम् सार्ष्टितागुम् समानलोकनायन्ति य एतदुपयन्ति ये चैनत्प्राहुः येभ्यश्चैनत्प्राहुः ओ हरिः ओ
इति तैत्रियकाडः तृतीयप्रश्नः समाप्तः